शरीरं सुरूपं तथा वाकलत्रं यशश्चारुचित्रं धनं मेरुतुल्यं मनश्चेन लग्नं गुरुरङ्घ्रिपद्मे सर्वमेतद्धि जातं मनश्चेन लग्नं गुरुरङ्घ्रिपद्मे तत किं षडङ्गादिवेदो मुखी शास्त्रविद्या कवित्वादिगद्यं सुपद्यं मनश्चेन लग्नं गुरुरङ्घ्रिपद्मे तत किं विदेशेषु मान्य स्वदेशेषु धन्य सदाचारवित्तेषु मत्तो मनश्चेन लग्नं गुरुरङ्घ्रिपद्मे तत किं क्षमा मण्डले भूपभूपालवृन्दे सदा सेवितं यस्य पादारविन्दं मनश्चेन जगत्वस्तु सर्वं करियत् प्रसादात् मनश्चेन